स्वरूपम् त्वमेवासि मूलाक्षरं च प्रयागम् त्वमेवासि शास्त्रिं च योगी स्वरूपम् चिरञ्जीव स्वामिन् शतम्।